वेदान्तवाक्येषु सदारमन्तः भिक्षान्नमात्रेण चतुष्टिमन्तः अशोकवन्तः करुणैकवन्तः कौपीनवन्तः खलु भाग्यवन्तः मूलन्तरो केवलमाश्रयन्तः पाणिद्वये भोक्तुममत्रयन्तः कन्थामपि स्त्रीमिव कुत्सयन्तः कौपीनवन्तः खलु भाग्यवन्तः देहाभिमानम् परिहृत्य दूरात् आत्मानमात्मन्यवलोकयन्तः अहर्निशम् ब्रह्मणि ये रमन्तः कौपीनवन्तः खलु भाग्यवन्तः स्वानन्दभावे परितुष्टिमन्तः संशान्त सर्वेन्द्रियवृत्तिमन्तः नान्तम् न मध्यम् न बहिः स्मरन्तः कौपीनवन्तः खलु भाग्यवन्तः पञ्चाक्षरम् पावनमुच्चरन्तः पतिम् पशूनाम् हृदि भावयन्तः भिक्षाशनादिक्षु परिभ्रमन्तः कौपीनवन्तः खलु भाग्यवन्तः